अकम्पः संकल्पः क्वचिदपि न केनापि चलितः न चित्ते चाञ्चल्यं न च विपथगामीन्द्रियगणः समं सोढागालिः क्वचन घनमुष्टेः प्रहरणम् प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे न रागो न द्वेषो घटित घटनासु प्रतिकृतः विरोधः सद्भावे परिणतिमुपागात् प्रतिपदं नलेशः क्लेशानां समजनिनिमेषं सहचरः प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे अलब्धेऽप्याहारे सुमतिरचलन्नो क्षणमपि न लब्धं सुस्थानं तदपि पथिनीते स्थिरमतिः न कष्टं तत्कष्टं भवति यदि चित् स्पष्टमुदिता प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे सदा स्वच्छो भावो जिनवचनभावैरपमलः कृतादर्शा प्रज्ञा मतिविभवमाक्रम्य सुगता न चेर्ष्या नो निन्दा गहनतम निष्ठा स्वचरिते प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे न सा काम्या बुद्धिर्भवति खलु या बन्धनिरता प्रशस्यां तां मन्ये भवति च यतश्चिद् विकसिता स्वचैतन्ये निष्ठा प्रशम सुखवृष्टेरनुभवः प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे ज्वरो यस्याध्वानं सततमविगानं विहितवान् निराशा संन्यस्ता सरितिरवितापेन सुतरां प्रकाशः सम्प्राप्तो गहनतिमिरे चैत्यनिलये प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे अगम्यं यन्नाम प्रबलतपसा संचित यशो न शेषाः संक्लेशा विलयमुपयान्ति स्मरणतः नयन् ओम एम ओम ओम अमल मनसार्हं सवलयम् प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे मतिः सिद्धा शुद्धा भवतु प्रतिबुद्धा प्रतिपलं मनोहित्वा भ्रान्तिं व्रजतु सुखदां शान्तिममलां सदा ह्रीं 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 स्फुरतु नितरां भा प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे।